अथैकचत्वारिंशः सर्गः पुत्रांश्चरगता ज्ञात्वा सगरो रघुनन्दन नप्तारमब्रवीद्राजा दीप्यमानम् स्वतेजसा शूरश्च कृतविद्यश्च पूर्वैस्तुल्योऽसि तेजसा पितॄणाम् गतिमन्विच्छयेन चाश्वोपवाहितः अन्तर्भौमानि सत्त्वानि वीर्यवन्ति महान्ति च तेषाम् द्वप्रतिघातार्थम् सासिम् गृह्णीष्व कार्मुकम् अभिवाद्याभिवाद्यांस्तम् हत्वा विघ्नकरानपि सिद्धार्थः सन्निवर्तस्व मम यज्ञस्य पारगः एवमुक्तोऽंशुमान् सम्यक् सगरेण महात्मना धनुरादाय खड्गम् च जगामलघुविक्रमः सखातम् पितृभिर्मार्गमन्तर्भौमम् महात्मभिः प्रापद्यतनरश्रेष्ठतेन राज्ञाभिचोदितः देवदानवरक्षोभिः पिशाचपतगोरगैः पूज्यमानम् महातेजा दिशा गजमपश्यत सतम् प्रदक्षिणम् कृत्वा पृष्ट्वा चैव निरामयम् पितॄन् सपरिपप्रच्छ वाजिहर्तारमेव च दिशा गजस्तु तच्छ्रुत्वा प्रत्युवाच महामतिः आसमञ्जकृतार्थस्त्वम् सहाश्वशीघ्रमेष्यसि तस्य तद्वचनम् श्रुत्वा सर्वानेव दिशा गजान् यथाक्रमम् यथा न्यायम् प्रष्टुम् समुपचक्रमे तैश्च सर्वैर्दिशापालैर्वाक्यज्ञैर्वाक्यकोविदैः पूजितः सह यश्चैवागन्तासीत्यभिचोदितः तेषाम् तद्वचनम् श्रुत्वा जगामलघुविक्रमः भस्मराशीकृता यत्र पितरस्तस्य सागराः स दुःखवशमापन्नस्त्वसमञ्जसुतस्तदा शुक्रोशपरमार्तस्तु वधात्तेषाम् सुदुःखितः यज्ञयम् च हयम् तत्र चरन्तमविदूरतः ददर्शपुरुषव्याघ्रो दुःखशोकसमन्वितः स तेषाम् राजपुत्राणाम् कर्तुकामो जलक्रियाम् स जलार्थी महातेजा न चापश्यज्जलाशयम् विसार्य निपुणाम् दृष्टिम् ततोपश्यत्खगाधिपम् पितॄणाम् मातुलम् राम सुपर्णमनिलोपमम् स चैनमब्रवीद्वाक्यम् वैनतेयो महाबलः माशुचः पुरुषव्याघ्रवधोऽयम् लोकसम्मतः कपिलेनाप्रमेयेण दग्धा हीमे महाबलाः सलिलम् नार्हसि प्राज्ञ दातुमेषाम् हि लौकिकम् गङ्गा हिमवतो ज्येष्ठा दुहिता पुरुषर्षभा तस्याम् कुरु महाबाहो पितॄणाम् सलिलक्रियाम् भस्मराशीकृता नेतान् प्लावयेल्लोकपावनी तया क्लिन्नमिदम् भस्म गङ्गया लोककान्तया षष्टिम् पुत्रसहस्राणि स्वर्गलोकम् गमिष्यति निर्गच्छाश्वम् महाभागसङ्गृह्य पुरुषर्षभा यज्ञम् पैतामहम् वीरनिर्वर्तयितुमर्हसि सुपर्णवचनम् श्रुत्वा सोऽंशुमानतिवीर्यवान् त्वरितम् हयमादाय पुनरायान्महातपाः ततो राजानमासाद्य दीक्षितम् रघुनन्दन न्यवेदयद्यथा वृत्तम् सुपर्णवचनम् तथा तच्छ्रुत्वा घोरसङ्काशम् वाक्यमंशुमतो नृपः यज्ञम् निर्वर्तयामास यथा कल्पम् यथा विधि स्वपुरम् त्वगमच्छ्रीमानिष्टयज्ञो महीपतिः गङ्गायाश्चागमे राजा निश्चयम् नाध्यगच्छत अगत्वा निश्चयम् राजा कालेन महता महान् त्रिंशद्वर्षसहस्राणि राज्यम् कृत्वा दिवम् गतः इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकचत्वारिंशः सर्गः।